ಶ್ರೀ ಆದಿನಾಥಾಯ ನಮೋಸ್ತು ತಸ್ಮೈ ಏನೋಪದಿಷ್ಟಾ ಹಠಯೋಗ ವಿದ್ಯಾ ವಿಭ್ರಾಜತೆ ಪ್ರೋನ್ನತ ರಾಜಯೋಗಂ ಆರೋಢ ಮಿಚ್ಛೋ ರಥಿರೋಹಿಣೀವ. ಅದನ್ನ ಸಪ್ತದಶ ಶ್ಲೋಕ ಸಮಾಪ್ತ ಪ್ರಥಮ ಅಧ್ಯಾಯಸ್ಯ ಅಷ್ಟಾದಶ ಶ್ಲೋಕ ಅಧುನಾ ಆರಭ್ಯತೆ ಹಠಯೋಗ ಪ್ರದೀಪಿಕಾಯಾಃ ಪ್ರಥಮ ಅಧ್ಯಾಯಸ್ಯ. ವಸಿಷ್ಠಾದ್ಯೈಶ್ಚ ಮುನಿಭಿಃ ಮತ್ಸ್ಯೇಂದ್ರಾದ್ಯೈಶ್ಚ ಯೋಗಿಭಿಃ ಅಂಗೀಕೃತಾನ್ಯಾಸನಾನಿ ಕಥ್ಯಂತೆ ಕಾನಿಚಿನ್ ಮಯಾ ಇತಿ. ಶ್ಲೋಕ ಆನಿಚಿತ್ ಆಸನಾನಿ ಮಯಾ ಕಥ್ಯಂತೆ. ಆತ್ಮಾರಾಮಃ ಕಥಯತಿ ಅಹಂ ಕಾನಿಚನ ಆಸನಾನಿ ಕಥಯಾಮಿ ಇತಿ. ತನ್ನಮ ಆಸನಾನಿ ಅನೇಕಾನಿ ತೇಷು ಕಾನಿಚಿತ್ ಏವ ಆಸನಾನಿ ಅಹಂ ಕಥಯಾಮಿ. ಈದೃಶಾನಿ ಆಸನಾನಿ ಅಂಗೀಕೃತಾನಿ ಆಸನಾನಿ, ಯಾನಿ ಆಸನಾನಿ ಅಂಗೀಕೃತಾನಿ ಸಂತಿ, ಯಾನಿ ಆಸನಾನಿ ಶ್ರೇಷ್ಠೈ ಗ್ರಾಹ್ಯತ್ವೇನ ಉಪದಿಷ್ಟಾನಿ ಸಂತಿ, ತದೇವ ಅಂಗೀಕೃತಾನಿ ಇತಿ ಪದಸ್ಯ ಅರ್ಥ. ಗ್ರಾಹ್ಯತ್ವೇನ ಉಪದಿಷ್ಟಾನಿ, ಕೈಹಿ ಗ್ರಾಹ್ಯತ್ವೇನ ಉಪದಿಷ್ಟಾನಿ ಆಸನಾನಿ ಮಯಾ ಕಥ್ಯಂತೆ, ಯೋಗಿಭಿ ಅಂಗೀಕೃತಾನಿ, ಮತ್ಸ್ಯೇಂದ್ರಾದ್ಯೈಹಿ ಯೋಗಿಭಿ ಅಂಗೀಕೃತಾನಿ, ವಸಿಷ್ಠಾದ್ಯೈಹಿ ಮುನಿ ಮಯಾ ಕಥ್ಯಂತೆ. ಮತ್ಸೇಂದ್ರಾದ್ಯಾಃ ಯೋಗಿನಃ ವಸಿಷ್ಠಾದ್ಯಾಃ ಮುನಯಃ ಏತೈಃ ಮುನಿಭಿಃ ಯೋಗಿಭಿಃ ಚ ಅಂಗೀಕೃತಾನಿ ಯಾನಿ ಆಸನಾನಿ ತೈಃ ತಾನಿ ಆಸನಾನಿ ಮಯಾ ಕಥ್ಯಂತೆ ಇತಿ ಶ್ಲೋಕಸ್ಯ ಅರ್ಥಃ. ಅತ್ರ ವಿವರಣೀಯಾಃ ವಿಷಯಾಃ ಸಂತಿ. ಕಾನಿಚಿತ್ ಆಸನಾನಿ ಕಥ್ಯಂತೆ ಇತಿ ಚೇತ್ ಕಶ್ಚನ ಪ್ರಶ್ನಃ ಕಾಚಿತ್ ಜಿಜ್ಞಾಸಾ ಭವತಿ, ಕತಿ ಆಸನಾನಿ ಸಂತಿ ಅಸ್ಮಿನ್ ಪ್ರಪಂಚೇ ಯೋಗಶಾಸ್ತ್ರೇ, ಕಿಯಂತಿ ಆಸನಾನಿ ಸಂತಿ ಯತಃ ಕಾನಿಚನ ಆಸನಾನ್ಯೇವ ಉಚ್ಯಂತೆ ಅತ್ರ ಇತಿ. ಅತ್ರ ಏಕಃ ಶ್ಲೋಕಃ ಅಸ್ತಿ, ತನ್ನಾಮ ಯಾವಂತ್ಯಃ ಜೀವಜಾತಯಃ ಸಂತಿ ತಾವಂತಿ ಆಸನಾನಿ ಸಂತಿ ಇತಿ ಏಕಂ ವಚನಮಸ್ತಿ. ತತ್ರ ಚತುರಶೀತಿ ಲಕ್ಷಾಣಿ ಲಕ್ಷ ಸಂಖ್ಯಾಕಾನಿ, ಚತುರಶೀತಿ ಲಕ್ಷ ಸಂಖ್ಯಾಕಾನಿ, ಚತುರಶೀತಿ ಲಕ್ಷ ಸಂಖ್ಯಾಕಾಃ ಜೀವಜಾತಯಃ ಸಂತಿ 84 lakhs ತದೇವ ಅಸ್ಮಾಕಂ ಶಾಸ್ತ್ರೇಷು ಉಚ್ಯತೆ. 84 lakhs ಜೀವಜಾತಯಃ ಸ್ಪೀಷೀಸ್ ಆಫ್ ಅನಿಮಲ್ಸ್ ಸಂತಿ, ಕ್ರೀಚರ್ಸ್ ಕ್ರಿಯೇಟೆಡ್ ಬೀಯಿಂಗ್ಸ್ ಸಂತಿ. ಅತಃ ಯಾವಂತ್ಯಃ ಜೀವಜಾತಯಃ ತಾವಂತಿ ಆಸನಾನಿ ಭವಿತುಂ ಅರ್ಹಂತಿ. ತರ್ಹಿ ಕತಿ ಆಸನಾನಿ?
ಚತುರಶೀತಿ ಲಕ್ಷ.
ಸತ್ಯಂ, ಚತುರಶೀತಿ ಲಕ್ಷ ಆಸನಾನಿ ಭವಿತುಂ ಅರ್ಹಂತಿ. ಯಾವಂತ್ಯಃ ಜೀವಜಾತಯಃ ತಾವಂತಿ ಆಸನಾನಿ ಇತ್ಯುಕ್ತತ್ವಾತ್. ಕಿಂತು ತತ್ರಾಪಿ ಅಗ್ರೆ ತತ್ರ ಶಿವಸಂಹಿತಾ ಇತ್ಯಾದಿಷು ಗ್ರಂಥೇಷು ಚತುರಶೀತಿ ಆಸನೇಷು चतुरशीति लक्ष संख्याकेषु आसनेषु चतुरशीत्यासनानि प्रमुखानि इति, ततः चतुरशीत्यासनानि प्रमुखानि इति उच्यन्ते। पुनः तत्रापि ततः अपि अस्मिन् हठयोगप्रदीपिकाग्रन्थे पञ्चदशसङ्ख्याकानि आसनानि उच्यन्ते। तर्हि कानिचित् इति पदस्य कः अर्थः? कति सङ्ख्याकानि आसनानि उच्यन्ते? पञ्चदश आसनानि, चतुरशीति लक्ष आसनानि साध्यानि विद्यन्ते, तथा तत्रापि चतुरशीत्यासनानि प्रमुखानि इति शिवेनैव स्वयं कथितमस्ति ग्रन्थान्तरे। तत्रापि ततः अपि पञ्चदश आसनानि सङ्गृह्य अस्मिन् ग्रन्थे कथ्यन्ते, तदेव कानिचित् आसनानि कथ्यन्ते इति पदस्य तात्पर्यं भवतु। इदानीं कैः एतानि आसनानि प्रमाणितानि अङ्गीकृतानि इति चेत्, वसिष्ठाद्यैः मुनिभिः मत्स्येन्द्राद्यैः योगिभिः इत्यस्ति। तत्र योगप्रपञ्चे द्विविधाः साधकाः इति अस्मिन् श्लोके अस्माभिः द्रष्टुं शक्यते। के ते द्विविधाः साधकाः? मुनयः योगिनः, वसिष्ठाद्याः मुनयः, मत्स्येन्द्राद्याः योगिनः। वसिष्ठः आद्यः येषां याज्ञवल्क्यादीनां, ते वसिष्ठाद्याः, वसिष्ठः याज्ञवल्क्यः इत्येवमादयः केचन सन्ति ये मुनयः इति कथ्यन्ते। किञ्च मत्स्येन्द्रः जालन्धरः इत्येवं केचन सन्ति ते सर्वे योगिनः इति कथ्यन्ते। तत्र मुनीनां तथा च योगिनां च कः भेदः इति चेत्, यद्यपि तत्र ज्योत्स्नाव्याख्यायामेव स्पष्टीक्रियते के मुनयः के योगिनः इति, यद्यपि उभयोरपि मननहठाभ्यासौ सः, तथापि वसिष्ठादीनां मननं मुख्यं मत्स्येन्द्रादीनां हठाभ्यासः मुख्यः इति पृथग्ग्रहणम्। अत्र योगमार्गे विषयद्वयं, मननम् इत्येकं, हठाभ्यासः इत्यपरम्। मननं करणीयं, हठाभ्यासः अपि करणीयः। मननं नाम किं? श्रवणं, मननं, निधिध्यासनम् इति उपनिषत्सु आत्मावलोकनार्थम् अथवा आत्मध्यानार्थम् उपायाः कथिताः। श्रवणं नाम शास्त्रवाक्यानां गुरुमुखेन अध्ययनम्, गुरुद्वारा ग्रहणं, तदेव श्रवणम् इत्यर्थः। मननं नाम किम्? मननं नाम युक्तिभिः चिन्तनं, नाम गुरुः यानि वाक्यानि उपदिशति, यान् विषयान् पाठयति, तेषां विषयाणां तान् विषयान् अधिकृत्य युक्तिभिः पुनः पुनः चिन्तनम्। ओ आचार्यैः एवं कथितं, तद्युक्तम् उत न युक्तं, तत्र के तर्काः साधकाः, के तर्काः बाधकाः इत्यादि पुनः पुनः मनसि विचारणमेव मननम्। तदनन्तरं यदा मननं क्रियते, तत्र विचारस्य आलोडनं क्रियते मनसि, तदा कश्चन निष्कर्षः उत्पद्यते। आम् सत्यं, गुरुभिः यद्बोधितम् आत्मनः विषये तत्त्वं, तत्सर्वं सत्यम् इति गृहीतम्। तर्हि विषयज्ञानेन न अलं वेदान्ते, निधिध्यासनमपि करणीयं। निधिध्यासनं नाम ध्यानं करणीयम्, विषयः श्रोतव्यः, अनन्तरं सम्यक् विचारणीयः मननद्वारा, अनन्तरं ध्यातव्यः इत्येवं त्रयः उपायाः। तत्र मननम् इति एकः उपायः सः मुख्यः। एवमेव हठाभ्यासः, हठाभ्यासो नाम कः? आसनं, प्राणायामः, मुद्रा, नादानुसन्धानम्, एते सर्वेपि एतेषां सर्वेषाम् अभ्यासः एव हठाभ्यासशब्देन एतेषां ग्रहणं भवति. तस्मात् ये साधकाः भवन्ति ते मननं कुर्युः. मननम् इति शब्देन मननोपलक्षित श्रवण निधिध्यासनयोः अपि ग्रहणं कर्तव्यम्. तस्मात् हठाभ्याससन्दर्भे केवलं हस्तपादादीनां चालनं, केवलं प्राणायामः इत्येव करणीयम् इति न. किमपि करणीयम्? अध्ययनं, विचारः, ध्यानं सर्वमपि करणीयम्. तस्मात् मननमपि करणीयं, हठाभ्यासः अपि करणीयः. परन्तु मननं हठाभ्यासः इत्येतदुभयमपि यद्यप्यस्ति, तत्र के मुनयः भवन्ति? वस्तुतः मननात् मुनिः इति. मुनिशब्दस्य व्युत्पत्तिः एव तथा अस्ति. कथमस्ति? मनन यः मननं करोति सः एव मुनिः भवति. अतः यः मन अवबोधने इति धातुः, यः विषयम् आत्मतत्त्वं बोद्धुं प्रयतमानः अस्ति, सः एव अवगन्तुं प्रयतमानः अस्ति, सः एव किं भवति? मुनिः. अतः येषां साधकानां मननं प्रमुखं, ते हठाभ्यासमपि कुर्वन्ति, परन्तु येषां तत्र गौरवलाघव सारी तत्र गौण गुणप्रधानभावः अस्ति, येषां साधकानां मननं प्रधानं, हठाभ्यासः गौणः, ते मुनयः इति कथ्यन्ते. येषां साधकानां हठाभ्यासः मुख्यः तथा च मननं गौणं, ते सर्वेपि योगिनः इति अत्र पदेन व्यवह्रियन्ते. तर्हि इदानीं स्वाभाविकः कश्चन प्रश्नः भवति. कः प्रश्नः भवति? मुनिभिर्भाव्यं वा योगिभिर्भाव्यं वा इति प्रश्नः भवति किल. कस्य प्रामुख्यं देयं? मननस्य प्रामुख्यं देयं वा मया इदानीं मम दृष्ट्या? मननस्य प्रामुख्यं देयं वा हठाभ्यासस्य प्रामुख्यं देयं वा इति. एकम्, अस्माकं संस्कारः कथमस्ति इति स्वयम् अस्माभिः तत्र साधनमार्गे यदा अग्रे गम्यते तदा स्वयम् अवगम्यते, ओ मम एषः प्रधानः विषयः, एषः गौणः विषयः इति स्वयं प्रतिभाति. यतोहि अभ्यासेनैव अग्रे अग्रे अस्माकं संस्काराणां परिपाकः भवति, तेनैव स्पष्टता उत्पद्यते. अतः कालक्रमेणैव मननस्य प्रामुख्यं वा मम विषये, मननस्य प्रामुख्यं वा हठाभ्यासस्य प्रामुख्यं वा इति कालक्रमेणैव स्पष्टता भवति. अतः व्यासः कथयति, यः योगसूत्राणां व्याख्याता सः कथयति, किं कथयति? योग एव उपाध्यायः इति. एकं व्यासभाष्यवचनमस्ति, योगः एव उपाध्यायः. योगः एव उपाध्यायः इति शब्दस्य कः अर्थः?
योगसाधनं कृत्वा एव कालक्रमेण तदेव मार्गं दर्शयति.
सत्यम्. आरम्भे बहु चिन्तनापेक्षया प्रारम्भिकानि अनुष्ठानानि यानि सन्ति तानि करणीयानि निरन्तरं दीर्घकाल नैरन्तर्य सत्कारासेवितः इत्युक्तक्रमेण. तदा एव स्वयं स्पष्टं भवति कुत्र प्रामुख्यं, कुत्र नाम अल्पः कालः देयः इति, तत्रैव स्पष्टं भवति. अत्र पुनः गुरुवचनमपि सः करोति. गुरवः ये भवन्ति ते अपि मार्गदर्शनं कृत्वा अस्मान् अनुगृह्णन्ति. ये मुनयः ये च योगिनः सन्ति तैः उभय पक्षस्थितैः अपि अङ्गीकृतानि आसनानि कथ्यन्ते. तन्नाम पश्यतु अत्र अन्यदपि भाति. किं भाति इति चेत् मुनीनां मननं प्रमुखं, हठाभ्यासिनाम् आसनं प्रमुखं, द्वयोरपि अङ्गीकृतिः येषाम् आसनानां विषये अस्ति तादृशानि आसनानि कथ्यन्ते इति चेत् कोऽर्थः? उभयोः अपि यत्र सम्मतिः अस्ति तन्नाम अत्यन्तं फण्डमेण्टल् इति, अत्यन्तमेव आधारभूतानि आसनानि, बेसिक्स् किल, फण्डमेण्टल्स् विषये उभयोः अपि अङ्गीकृतिः भवति, सम्मतिं भवति. अग्रे विशिष्टं करणीयं वा न वा इत्येतद् विषये वैमत्यं भवितुम् अर्हति. परन्तु आधारभूतानाम् आसनानां विषये किं भवति, आधारभूतानाम् आसनानां विषये उभयपक्षधराणामपि किं भवति, अङ्गीकारः भवति. अतः तादृशानि आसनानि कथ्यन्ते, अतः तादृशानि पञ्चदशसङ्ख्याकानि आसनानि कथ्यन्ते इति स्वात्मारामः कथयति. भो अग्रे नवदशः श्लोकः यत्र साक्षात् आरम्भः भवति आसनानां विवरणस्य. जानूर्वोरन्तरे सम्यक् कृत्वा पादतले उभे ऋजुकायः समासीनः स्वस्तिकं तत् प्रचक्षते इति. अधुना स्वस्तिकासनस्य विषये विवरणं भवति. स्वस्तिकं तत् प्रचक्षते, तत् स्वस्तिकासनम् इति कथ्यते. किं तत् स्वस्तिकासनं, तत् कथं करणीयम् इति चेत्, जानूर्वोः अन्तरे उभे पादतले सम्यक् कृत्वा. जानू नाम किम्?
जानू नाम नी.
नी, नी. जानूर्वोरन्तरे सम्यक् पादतलम् अस्ति, सोल् आफ् द फीट्. जानूर्वोरन्तरे सम्यक् कृत्वा पादतले उभे ऋजुकायः समासीनः स्वस्तिकं तत् प्रचक्षते. प्रचक्षते नाम उच्यते इत्यर्थः. तत् स्वस्तिकम् इति उच्यते, तत् स्वस्तिकासनम् इति उच्यते. किं स्वस्तिकासनम् इति उच्यते? अस्मिन् श्लोके तस्य विवरणमस्ति. एकं कार्यं कुर्मः, अत्र शरीर अवयवानां नामानि सन्ति, तानि कानि इति प्रथमं पश्यामः. श्लोके जानु इति पदमस्ति, ऊरु इति पदमस्ति, पादतलम् इति पदमस्ति, त्रीणि पदानि सन्ति. जानु शब्दस्य अर्थः कः? नी, के एन् इ, नी, तदेव जानु शब्दस्य अर्थः. ऊरु शब्दस्य कः अर्थः?
तै,
तै, सत्य. जानु ऊरु, जानु ऊर्वोः अन्तरे, अन्तरे नाम तयोः मध्ये इत्यर्थः. जानु ऊरु एतयोः मध्ये पादतलं, पादतलं नाम किम्? पादस्य तलं नाम सोल् इति उच्यते किल, पादस्य अधोभागः अस्ति किल, येन भागेन भूस्पर्शः भवति अस्माकं शरीरस्य सामान्यतः चलनसन्दर्भे, तद् किमिति उच्यते? पादतलं. तत् पादतलं किं करणीयम्? जानु ऊर्वोः अन्तरे प्रवेष्टव्यं, प्रवेशनीयं, प्रवेशयितव्यं, स्थापनीयम् इत्यर्थः. इदानीं दक्षिणपादः, दक्षिणपादतलं गृहीत्वा वाम जानूर्वोः मध्ये स्थापनीयम्. एवमेव वाम पादतलं गृहीत्वा दक्षिणजानूर्वोः अन्तरे स्थापनीयं, मध्ये स्थापनीयम्. तावत् कृत्वा अनन्तरं किं करणीयम्? ऋजुकायः, ऋजु नाम
स्ट्रैट्,
सत्यं, वक्रत्वं विना. मेरुदण्डः अस्ति किल स्पैन्, तत्र वक्रता न भवेत्, ऋजुत्वं भवेत्. तदेव कायस्य ऋजुत्वं नाम, मेरुदण्डस्य ऋजुत्वे सिद्धे सति कायस्य ऋजुत्वं सिद्ध्यति. समासीनः, एतत् किं करणीयम् इति चेत् उपविश्य करणीयम् आसनम्. अतः ऋजुकायः भूत्वा एवं यः समासीनः भवति सः स्वस्तिकासनस्थः इत्युच्यते. तत् अत्र एक स्पष्टता कार्यते. अत्र जानुशब्दः अस्ति किल, जानुशब्दः, जानुशब्दस्य स्थाने जङ्घशब्दः स्वीकरणीयः इति व्याख्याकर्ता वदति. जंघा इति शब्दस्य कः अर्थः इति चेत् जानुनः आरभ्य तत्र पाद पादमस्ति किल, पादस्य अधोभागः अस्ति किल, तस्य तत्र किं वदामः शिन् इति वदन्ति किल, शिन् सः जङ्घभागः इति उच्यते. जानु ऊरु एकस्यानन्तरम् एकम् अस्ति, तस्मात् तयोः मध्ये पादतलस्य स्थापनं कर्तुं न शक्यते. जानूर्वोः इति पदस्य कः अर्थः? जङ्घायाः ऊरु, ऊरुभागः अस्ति किल, तस्य च मध्ये पादतलस्य स्थापनं करणीयम् इति. कटिभागात् जानुपर्यन्तं पादस्य एकः भागः अस्ति, फ्रम् द वेस्ट् टु द नी पादस्य एकः भागः. जानुनः आरभ्य टिल् द फीट् पादस्य अपरः भागः अस्ति, सत्यं वा?
सत्यम्.
तयोर्मध्ये अपरस्य पादस्य पादतलं निवेशनीयम्. अस्तु, एतदेव किम् आसनम् इत्युच्यते?
स्वस्तिकासनम्.
स्वस्तिकासनम् इत्युच्यते. एतत् प्रथमम् आसनम्. अग्रे एतस्य चित्राणि अहम् अग्रे प्रदर्शयिष्यामि, एतेषाम् आसनानां चित्राणि अहम् अग्रे प्रदर्शयिष्यामि, तदा इतोपि स्पष्टता भविष्यति. अग्रिम विंशति विंशः श्लोकः. सव्ये दक्षिणगुल्फन्तु पृष्ठपार्श्वे नियोजये, दक्षिणेऽपि तथा सव्यं गोमुखं गोमुखाकृति इति. अग्रिमम् आसनं गोमुखासनं भवति. अत्र एतद् आसनं गोमुखम् इति उच्यते, गोमुखासनम् इत्युच्यते. एतत् किमर्थं गोमुखासनम् इति चेत्, आसनस्य स्वरूपं कथं भवति इति चेत् गोमुख आकृति. गोमुखस्य गौः अस्ति किल, धेनुः, धेन्वाः मुखं यदि अस्माभिः अवलोक्यते तस्य यादृशं स्वरूपम् अस्ति तादृशं स्वरूपं गोमुखासनाभ्यासकर्तुः शरीरे भवति, तत् सादृश्यं भवति. तस्मात् इदमासनं गोमुखाकृतित्वात् गोमुखम् इति उच्यते. तर्हि स्वस्तिकासनस्य कः अर्थः? अः अर्थः व्याख्यातृभिः न कथितः, परन्तु कश्चन मङ्गलकरः आसनविशेषः अथवा आसनप्रकारः स्वस्तिशब्दस्य मङ्गलं कल्याणम् इति अर्थः. तस्मात् तस्य आसनस्य अनुष्ठानेन सर्वविध सुखं सिद्ध्यति, तस्मात् स्वस्तिकासनम् इति नाम कृतं स्यात् इति उह्यते. भवतु, गोमुखासनस्य विषये अनुमानस्य अनुमानप्रमाणं नापेक्षितं, प्रत्यक्षप्रमाणमेव अस्ति अथवा आगमप्रमाणमेव साक्षात् अस्ति. यत् श्लोकः एव कथयति गोमुखाकृति इदं गोमुखम् इति. भवतु, इदम् आसनं कथं करणीयम् इति चेत्, अत्र श्लोके कानिचन पदानि सन्ति, तेषां पदानां परिचयः प्राप्तव्यः. किमस्ति? सव्ये दक्षिणगुल्फञ्च पृष्ठपार्श्वे नियोजये, दक्षिणेऽपि तथा सव्यं गोमुखं गोमुखाकृति इत्यस्ति. अत्र सव्यशब्दः अस्ति, दक्षिणशब्दः अस्ति, अनन्तरं गुल्फशब्दः अस्ति, पृष्ठशब्दः अस्ति, अनन्तरं पार्श्वशब्दः. सत्यं वा?
सत्यम्.
एतेषां पदानां कः अर्थः इति प्रथमं जानीमः, अनन्तरं सर्वं स्पष्टं भविष्यति. भवती एव स्वयम् अस्य विवरणं कर्तुम् अर्हति. सव्यशब्दस्य कः अर्थः? वाम इत्यर्थः. दक्षिणशब्दस्य तु दक्षिण इत्येव अर्थः, सव्येतरभागः दक्षिणम् दक्षिणभागः इत्यर्थः. गुल्फशब्दस्य कः अर्थः? गुल्फशब्दस्य आङ्कल्, आङ्कल् इति उच्यते किल, तदेव गुल्फशब्देन उच्यते. अनन्तरं पृष्ठ, पृष्ठ नाम शरीरस्य पृष्ठभागः एव अत्र पृष्ठशब्देन उच्यते. किं करणीयम्? दक्षिणगुल्फः अस्ति, दक्षिणगुल्फः तत्र नाम कथम् एतद् आसनं करणीयं? वस्तुतः अस्य श्लोकस्य पाठनसमये साक्षात् दर्शनम् अस्ति चेत् इतोपि सरलतरं भवति, चिन्ता नास्ति. तथापि कथयामि, दक्षिणगुल्फम् अस्ति, रैट् आङ्कल् अस्ति. तद् रैट् आङ्कल् किं करणीयम् इति चेत् तत्र वामपादस्य अधस्तात् तद् नीत्वा शरीरस्य वामभागस्य पृष्ठभागे स्थापनीयम्. अनन्तरं कः कः पादः अवशिष्टः अस्ति?
सव्यपादः.
वामपादः अस्ति. इदानीं वामपादः किं करणीयः? तत्र उपरि एवमेव तस्य सव्यगुल्फमस्ति किल, लेफ्ट् आङ्कल् अस्ति किल, तत् शरीरस्य दक्षिण पृष्ठपार्श्वस्य समीपे नेतव्यः. तदा किं भवति? वामजानुनः उपरि दक्षिणजानु भवति. एतत् मनसि कल्पयितुं शक्यते वा?
अथवा
स्वयं कृत्वापि द्रष्टुमर्हति भवति. तदा किं भवति? सी द लेफ्ट् नी अधः, सारी रैट् नी अधः, लेफ्ट् नी उपरि. सो एतद् जानुद्वयं यदा एवं तिष्ठति, तद् जानुद्वयं कथं दृश्यते? एकस्य उपरि एकं जानु अस्ति किल, तद् जानुद्वयं कथम् अस्ति इति चेत् गोमुखमिव अस्ति. तस्य आकृतिः जानुद्वयम्, एकस्य उपरि एकं जानु अस्ति किल, तद् जानुद्वयस्य आकृतिः गोमुखाकृति इति उच्यते. तस्मात् इदम् आसनं किमिति उच्यते?
गोमुखासनम्.
गोमुखासनम् इत्युच्यते. इदम् आसनं कथं क्रियते इति गृहीतं वा?
गृहीतम्. एवं चित्रमस्ति.
समीचीनम्. अत्र तु कथम् अस्ति? हस्तविन्यासः अस्ति, किञ्च तत्र पादस्य किं तत् एकः पादः उपरि अस्ति किल, नाम दक्षिणजानु उपरि दर्शितमस्ति, किन्तु दक्षिणजानु अपि वामजानुनः उपरि स्थापनी. तदा तदेव किल अत्र उपदिष्टमस्ति. तस्मात् इदं गोमुखासनं भवति. फिङ्गर् लाकिङ्ग् बिहैण्ड् इत्यादि सर्वं तत्र श्लोके नोक्तं. तत्तु प्रायः गुरुमुखात् ग्रहीतव्यं. नाम आसनस्य इदं मुख्यं कर्तव्यम्, अनिवार्यतया एतावत् करणीयं. तदुपरि आसनस्थैर्यार्थम् एतत् अत्र विकारः यथा न भवेत् तथा एतद् आसनस्थैर्यार्थं यत्किञ्चित् कर्तुं शक्यते तत्तत् सम्प्रदायानुसारम्. इदानीम् अग्रिमम् आसनं वीरासनम् इति भवति. एकं पादं तथैकस्मिन् विन्यसेत् ऊरुणि स्थिरम्, इतरस्मिं तथा चोरुं वीरासनम् इति ईरितम्. किमस्ति? एकं पादं एकस्मिन् विन्यसेत् ऊरुणि स्थिरम्, इतरस्मिं तथा च ऊरुं वीरासनम् इति ईरितम्. अत्र किमस्ति? पादशब्दः अस्ति. शरीर अवयववाचकाः शब्दाः के इति एकवारं पश्यामः. पादम् इति शब्दः अस्ति, फीट् इति तस्य सामान्यतः अर्थः. अत्र पादतलम् इति नोक्तं, फीट् इत्येव अर्थः. अन्यत् ऊरुशब्दः अस्ति, ऊरुशब्दः ज्ञायते किल, थै इति. एतावदेव पादशब्दः, ऊरुशब्दः अत्र श्लोके एकं पादं अपरस्मिन् ऊरुणि स्थापनीयम् अन्यत् अपरस्य पादस्य उपरि इतर ऊरुणः स्थापनं करणीयम् एतावदस्ति अत्र एकं पादम् इति चेत् कस्य पादस्य विषये उल्लेखः भवति इत्यादि तत्र श्लोके न स्पष्टतया प्रतीयते अतः व्याख्याने किमुच्यते एकं दक्षिणं पादम् इत्युक्तं पादद्वयं दण्डवत् प्रथमं प्रसारणीयम् उपविश्य पादद्वयं दीर्घदण्डवत् प्रसारणीयम् अनन्तरं किं करणीयम् एकं पादं दक्षिणपादः अस्ति किल दक्षिणपादं गृहीत्वा एकं पादम् एकस्मिन् ऊरुणि विन्यसेत् एकस्मिन् ऊरुणि इत्युक्ते वाम ऊरुणि इत्यर्थः नाम दक्षिणपादः गृहीतव्यः वाम ऊरुणः उपरि स्थिरं विन्यसेत् स्थिरं स्थापनीयः एतत् आसनक्रमे प्रथमः क्रमः अथवा प्रथमं सोपानम् अनन्तरं किं करणीयम् इतरस्मिन् वामे पादे दक्षिणम् ऊरुं विन्यसे अनन्तरं वामपादः कुत्र स्थापनीयः इदानीं दक्षिणपादः वाम ऊरुणः उपरि अस्ति सत्यं वा
सत्यम्
इदानीं वामपादः कुत्र स्थापनीयः वामपादः दक्षिण ऊरुणः अधः स्थापनीयः दक्षिणपादः वामोरुणः उपरि वामपादः कुत्र
दक्षिण
ऊरुणः अधः एतदेव किमित्युच्यते वीरासनम् इत्युच्यते नाम वीरासनं स्वस्तिकासनम् इत्येतेषाम् आसनानां नानाप्रकाराः भवन्ति विभिन्नेषु सम्प्रदायेषु किन्तु हठयोगप्रदीपिकोक्तप्रकारेण इदमेव किं भवति एतदेव व्याख्यानशरणतया अस्य आसनस्य विवरणं करणीयं चेत् एवमेव करणीयम् अतः अनेके अनुष्ठानप्रकाराः सन्ति अनेके आसनसम्बद्धग्रन्थाः अपि सन्ति परन्तु अस्माभिः अधुना किं क्रियते हठयोगप्रदीपिकानुसारम् आसनस्य स्वरूपम् अस्माभिः दृश्यते तावदेव अत्र स्थगयामः वाद्य एतेषाम् आसनानां विषये एवमेव भवति इतः परम् अग्रे अस्मिन् प्रायः कति आसनानि अस्माभिः दृष्टानि स्वस्तिकासनं दृष्टं गोमुखासनं दृष्टं वीरासनं दृष्टं सर्वाण्यपि एतानि त्रीणि आसनानि उपविश्य एव क्रियन्ते सत्यं किल अनन्तरं सामान्यतः एतानि त्रीण्यपि सरलानि अग्रे अग्रे आसनकाठिन्यं वर्धते एतेषां त्रयाणां प्रथमम् अभ्यासः तत्र क्रियते किञ्चित् नाम अन्यत् सामान्यतः हठयोगप्रदीपिकायां प्रायशः 90% आसनानि उपविश्यैव कर्तुं योग्यानि आसनानि भवन्ति यतोहि हठस्य अग्रे प्राणायामः इत्यादि लक्ष्यं तस्मात् आसनस्थैर्यं सम्पादनीयम् इत्यतः उपविष्टस्थितौ यान्यासनानि सन्ति तान्येव प्रमुखतया अत्र कथितानि अन्यप्रकाराणाम् आसनानामपि उल्लेखः अस्ति मयूरासनम् इत्यादि अस्ति परन्तु तत् द्वित्राण्येव आसनानि तादृशानि सन्ति येषाम् अन्यरीत्या अनुष्ठानं करणीयं तन्नाम उपवेशनाद् अन्यस्थितौ तत् करणीयं भवति हेण्ड् बालन्सिङ्ग् इत्यादि भवति परन्तु तद् द्वित्रासनान्येव सन्ति अन्यथा हठयोगप्रदीपिकायाम् उक्तानि आसनानि उपविश्य क्रियमाणान्येव भवन्ति इति शम् अद्य अत्र स्थगयामः श्रियादिनाथाय नमोऽस्तु तस्मै येनोपदिष्टाठयोग विद्या विभ्राजते प्रोन्नतराजयोगम् आरोढुमिच्छोरधिरोहिणीव।